द्रावयात्वं सोममिन्द्रः पिपासति उपनूनं युजिषणाहरि आच जगामवृत्रः स्वयं वित्समन्यते दासूरिर्जनो यत्रा सोमस्य दृम्पसि इदं ते अह्नं युज्यं समुक्षितं तस्येहि प्रद्रवापिव अथेष्टायाध्वर्यवसोममिन्द्रायसूतन अधिभ्रध्नस्याद्रजोऽपि तिष्ठते सुन्वन्दो दास्वध्वरम् उपभ्रध्नम् आपातावृषणाहरीन्द्रमपसु वक्षतः अर्वाञ्चम् त्वासत्ययोध्वरसृजो वहन्तु सवने तुप भूषणम् वृणीमहे युज्याय पुरुवसम् सक्रशिक्षपुरुहूतनो धियादुजे राजोऽभिमोचन सन्नस्तुसि भुरुजोरिव क्षुदम् राजोऽभिमोचन वेदन्नस्तु वेदमुस्त्रियम् वसुयन्तम् हिनोषिमत्यम् देवि त्वा पूर्णम् रञ्जसेवेभि स्तोदवाघ्ने तदस्य वेम्यरणम् हि तद्वसोऽस्तुषे वज्रायसाम्ने रागाभोजवसङ्गच्छिदाग्रणे नित्यम् रेक्नो अमर्त्य अस्माकम् पूषन्नदिता शिवो भवम् पृष्ठो वाच साधये स्थूरम् राधस्वता स्वम् कुरुङ्गस्य किमिष्टिषु राज्ञस्त्वेषस्य सुभगस्य रातिषु दुर्वसेषु मन्महि दीभिः सादानि काण्डस्य वादिनः प्रियमेधैरभिजूभिः षष्टिम् सहस्रानि निर्माजामजे निर्जोथानि गवामृषीः वृक्षाश्चिन्मे अभिभित्रे आरारणुः गाम् भजन्त मेहनाश्वम् भजन्त मेहनाः भद्रम् नो अपि वातयमनाः ओ हरिः ओ दूरादिहे भजत्सत्यगत् विभानम् विश्वधारनत् नृबद्धस्रामनो युजारसेन पृथुपाजसा सचेते अश्विनोषसम् युवाभ्याम् वाजिनीव सुप्रदिष्टो वा अनुक्षत पादम् दूतो यतो विषे पुरुप्रजानभूतये पुरुमन्द्रापुरूपसु सुषेकन्वासो अश्विना संविष्ठा वाजसा तमेषयम् तासुभस्वती गन्धाराधासुषो गृहम् तासु देवाजदासुषे सुमेधामवीतारिणी नृतैर्गव्योजिमुक्षतम् आनस्तो ममुपद्रवतूयम् सेनैभिरासुभिः जातमश्वेभिरश्विना येभिस्तिस्रः परावतो दिवो विश्वाः निरोचना ीरगर्विदा विपथः सातये शितम् आनो गोमन्दवशिरम् सुरथम् रयिम् गोढमस्वावधीर्षाः वावृधानासु भस्वजीयस्वाहिरण्यवर्तनी विपरम् सौम्यम् मधु अस्मभ्यम् वादिनी वसु मघवद्भश्च सप्रथा छर्दिर्जम् दमदाभ्यम् निरब्रह्मजनानाम् जविष्टम् तु यमागतम् मोष्वा अन्याम् उपारतम् अस्य पीपदमश्विना युगम् मदस्य चारूणः मध्वो राधस्य धिष्ण्या अस्मे आवयतम् व्ययम् सतलन्तम् सहस्रम् वृक्षम् विश्वधारितम् रुद्रादिजिवाम् नरा विश्वयम् देवनेषिणाः पागद्भिरश्विनागतम् जनासोक्तपर्यो हविष्मन्तो अरम् कृताः युगाभ्यावन्दे अश्विना अस्माकमद्यवामयम् सोमो बाहिष्ठो अम्बमः युगाभ्याम् भूत्वश्विना यो वाम् मधुनो धृतिराहीतो रथदर्शने तदप्युपदमश्विना तेन नो वाजिनीर्वसूपस्वेतोकाय सङ्गवेः वहतम् बीवरीरिषाः उदनोजायुरबुत सिन्धोऽङ्ग्रहर्विदा अपद्वारेव वर्षतः अथावाम् भोग्यो विदत्समुद्रे जहितो नरा यद्वाम् रथो विभिष्मदात् जना सत्यावीरिप्ताय हन्ये सस्वदूतीर्दशस्यतः अभिरायादमोतिभिर्नव्यासीभिः सुस्वस्तिभिः यद्वाम् ऋषण्वसूभुवे यथाकण्वमागतम् ऋजमेधमुपस्तुतम् अत्रिम् सिञ्चारमश्विना यशोदगद्वेदनेयम् शृङ्गोष्वगस्त्यम् यथा वाजेषु शोभरिम् एतावद्वाम् मृगण्वसूवतो बाभूयो अश्विना कृणन्तः सुम्नमीमहे रथम् हिरण्यबन्धुरम् हिरण्याभीसुमश्विना आहिस्थादो दिविस्पृशम् हिरण्ययीभाम्रभिरीषाक्षो हिरण्यजाः उभाचक्राहिरण्यजाः तेन नो वाजिनी वसूपरापतश्चिदागतम् उभेवाम् सुष्ठुतिम् मम आवहेषे परागात् पूर्वीरस्मन्दावश्विना विशोदासीरमत्या आनोऽज्युम्नैरास्रवोऽभिरायराजायादमश्विना पुनश्चन्द्राणा सत्या एवाम्रजप्सवोयो वहन्तु पर्णिनाः अच्छास्वध्वनजनम् रथम् भावनुगायसं यया वर्तते सः न चक्रमभिवाधते हिरण्ययेन द्रवत्पाणिभिरश्वैः जीजवनाना सत्या युवम् मृगम् जागृलाम् संसरोणन्वधु तानकृङ्गविटादयम् कामे अश्विनानीनाम् विजातम् नवानाम् ैत्यकृतशतमुष्णाम् ददत्सहस्रादशगुणाम् यो मे हिरण्यसन्द्रशोदशराज्ञोऽमम् अधस्वरायच्छैत्यस्य कृष्णयश्चर्मम् न अभियोजनाः माजीरेणापथागाद्येनेमेयन्ति चेतजाः अन्यो नेत्सूर्योहते भूरियावत्तरोजनाः महायन्द्रोजपूजसा पर्जन्यो वृष्टिमाीव सोमैर्वत्सस्य वावृधे प्रजामृतस्य विप्रतः प्रयद्भरम् दवह्नजः विप्रार्थस्य वाहसा कण्वायिन्द्रम् यदक्रतस्तोमैर्यज्ञस्य साधनम् यामिब्रूवदायुधम् समस्य मन्यवेऽपि सो विश्वानमन्दकृष्णजाः समुद्रायेव सिन्धवः ओजस्तदस्य दित्विषभुभे यत्समवर्तयत् इन्द्रश्चर्मे रोदसी विचिद्भद्रस्य रोधतो वज्रेण सतपर्वणा शिरो विभेदवृष्णिनाः इमाभिप्रणो नुमो विपामग्रेषु धीतजाः अग्ने शोचिर्न दिद्युताः गुहा सतीरुपद्मना प्रयच्छोचम् दधीतजाः कण्वार्धस्य धारया प्रणतमिन्द्रणसीमहिरयिम् गोमन्तमश्विनम् ब्रह्मा पूर्वचित्तये अहमिद्धि विदुष्परि मेधामृतस्य जग्रभ अहम् सूर्य इवाजनि अहम् रत्ने नमन्म नागिरस्वम्भामि गण्भवत् येनेन्द्रस्वष्पमिद्दधे ये त्वामिन्द्रणदुष्टुपुर्विषयोजे च दुष्टुवः मेद्वर्धस्व सुष्ठुतः यदस्य मन्युरध्वनेद्विरत्रम् पर्वसो रुजन् अपस्स मुद्रमैराजत् विदुष्णा इन्द्रधर्मसिं वज्रम् जघन्धरस्य विषाह्योग्रदृण्विषे नद्याव इन्द्रमोजसामान्तरिक्षाणि वज्रिणम् न विव्यजन्तभूमयः यस्त इन्द्रमहीरपस्त भूयमानमासयत् नितम् वज्रासुतिष्णतः य इमे रोदसी महीषमीषी समजग्रभीत् तमोभिरिन्द्रतम् गूहः य इन्द्रजराज स्वाभृगभोजे च दुष्टुवः ममेदुग्रश्रुधीहम् इन्द्रो भृतम् दूहत आसिरम् येनादस्य विद्युषीः या इन्द्रप्रस्वस्वासागर्भमचक्रिरन् परिधर्मे सूर्यम् स्वामिच्छावदस्वदेवक्षेन वा वृधः स्वाम् सुदास इन्द्रवः वेदिन्द्रप्रणीतिशूतप्रशस्तिरद्रिवः यज्ञोवीतम् दसाय्याः आन इन्द्रमहीमिषम् पुरन्नदर्शिको मतीम् उत प्रजाम् सुवीर्यम् उदत्यता स्वश्रियम् यदिन्द्रनाहुषीष्वा अग्रे भिक्षुप्रदीदयत् अभिव्रजन्नदग्निषे सूरावुपाकचक्षसम् यदिन्द्रमृगजासिनः यदङ्गतविषीयदैन्द्रप्रराजशिक्षितीः महाङ्गोजसा सम्वाहविष्णाजीर्विषमुपब्रुवतभूतये पुरुद्रजसमिन्दुभिः उपह्वरे गीरीणाम् सङ्गते च नदीनाम् भिजाविप्रो अजायत अपरः समुद्रमुद्वतश्चिकित्वा अवापश्यति यतो विपानये जाति आरिप्रत्रस्य रेतसो ज्योतिष्पश्यन् दिवासरम् परो यजिध्यते दिवा कण्वादीन्द्रदेवतीम् विश्वे वर्धम् दिपुंस्यम् उतोषविष्ठवृष्ण्यम् इमाम् मा इन्द्रदुष्टुतिम् जुषस्वप्रसुमामव उत प्रवर्धयामतिम् उत ब्रह्मण्या भयम् तुभ्यम् प्रवृद्धवद्रिवः विप्रादक्ष्मजीवसे अभिकण्वा अनुषदा पूर्णप्रवता यतीः इन्द्रम् वनन्वतीमतिः इन्द्रमुक्षामीवावृधः समुद्रमीव सिन्धवः अनुत्तमन्युमजरम् आनो याहि वरावतो हरिभ्याम् हर्यराभ्याम् इममिन्द्रसुतम् वीव स्वामिद्रहन्तमजनासो वृत्तपरिषः हवम् देवाच साधये अनुत्वारोदसी भुवे वर्चेतसम् अनुसुवानास इन्द्रवः मन्दस्वासुस्वन्नरभुतेन्द्रसर्जनावति मत्स्वाविवस्वतो मती वावृधानवुभज्यविवृढा भज्यरोरवीत् वृत्रहासोमपातमः ऋषिर्भिपूर्वजा अस्येकैषाः नवोजसा इन्द्रतोष्पूयसेवसु अस्माकम् त्वासुताम् उपवीतपृष्ठा अभिप्रजाः शतम् वाहम् दुहरयः इमाम् सुपूर्याम् धियम् मधोऽर्घृतस्य विद्युषीम् कण्वा उत्थेन वा मृदुः इन्द्रमिद्विमाहीनाम् मेधे वृणीतमद्याः इन्द्रम् धनुष्युरूतये अर्वाञ्चन् त्वा पुरुष्टुतप्रियमेधस्तु दाहरी सोमपेयाय वक्षतः शरदमहन्दीरे सहस्रम् वर्षा वादने राधाम् श्रियाद्वानाम् तेने सदान्यर्वताम् सहस्रादशगुणाम् चतुष्पज्राजाम् मे उदानकलुभोदिमुष्ट्राम् च दुर्युजो दधत् सर्वसायाध्वम् जनम् ेषु राजथीयभोजामम् शुभ्रामजिध्वम् निपर्वताहासत उदीरयन्त वायुभिर्वास्रादः कृष्णी मातरः युक्षन्त विद्युषीविषम् मरुतोमिहम् प्रवेपयन्ति पर्वतान् यद्यामयान्ति वायुभिः यद्यामायवो विगृह्णिन्धवोऽपिधर्मणे महे युष्माजये निरे युष्माक्तमूतये युष्मान् दिवाहवामहे युष्मान्द्रयत्यध्वरे ुत्ये अरुणप्सवश्चित्राया मेऽभिरीरते आस्राधिष्णुना दिवः सृजन्ति रश्मिमोज सापन्थाम् सूर्याय यातवे ते भानुभिर्वितस्थिरे इमाम् मे मरुतो गिरमिमम् सोममृभुक्षणः इमम् मे वनताहवम् ीनिसरांसि कृष्णायोदुदुःख्रे वज्रिणे मधु उत्सङ्गबन्धमुद्रिणम् मरुतो यद्धवो दिवः सुन्नायन्तो हवामहे आदूनमुपगन्तन यूयम् निष्ठासूदानवो रुद्रारुभुक्षणोदमे उत प्रचेतसोपदे आनो रयिम्मदच्युतम् पुरुक्षम् विश्वधायसम् यत्तामरुतो दिवः अधीवयद्गिरीणाम् यामम् शुभ्राजिध्वम् स्वानेर्मन्दध्वयिन्दूभिः एतावदस्तिलेषाम् सुम्नम् भिक्षेतमर्त्याः अदाभ्यस्य मन्माभिः ये द्रप्सा जीवरोदसीधमन्त्यनु वृष्टिभिः उत्सम् दुहन्तो अक्षीतम् उदुस्वानेभिरीरथमुद्रथैरुदु वायुभिः उत्सो मे कृष्णी मातरः ये नाम दुर्वसं यदुञ्जेन कण्वम् धनस्पृतम् काले सुतस्य धीमहि ूवस्सुदानवो घृतम् न विप्युषीरिषाः अर्धान् काण्डस्य मन्मभिः नूनम् सुदानवो मदधा वृत्तपरिहिडः ब्रह्माको वः सपर्यति नहेष्मयद्धवः पुरा सोमेभिर्वृत्तपरिहिडः सर्धाङ्घृतस्य विन्वध समुद्रे महतिरपसम् क्षोणी समसूर्यम् सम्भज्रम् पर्वतो दधुद्रम् पर्वतो जुर्विपर्वताङ्गराजिनाः चक्रानावृष्णिपौंस्यम् अनुकृतस्य युध्यतः सुष्णामावन्नुतक्रतुम् अन्वेन्द्रम् वृत्रतूर्ये यद्यद्धस्ता अभिद्यवशिप्रासीर्षङ्गीरण्ययीः शुभ्राव्यञ्जतश्रिये वृषनायत्वा रावद भुक्ष्णोरन्ध्रमजातन यौर्णचक्रदद्भिया आनो मखस्य धावने स्वैर्हिरण्यपाणिभिः देवासमुपगन्तन येषाम् बृहदीरथे बृहदिर्वहदिलोहितः यान्ति शुभ्रारिणन्नपः सुषोमे सर्जनावच्चार्जीके पश्चावति ययुर्निचक्रजानराः कदा गच्छाधमरुदयित्था विब्रह्मवामानम् मार्दीकेभिर्नाधमानम् कर्ध नूनम् कदप्रियो यदिन्द्रमजहातन को वः सखि त्वमोहते सहोर्वो वज्रहस्तैकण्वासो अग्निम् मरुद्भिः सुषेरण्यवासीभिः ओढवृष्टप्रयज्जूनानम् व्यासे सुभिताय अवृत्याम् चित्रवाजाय निरजश्चिन्निगीहते परुषानासो मन्यमानाः पर्वताश्चिन्निये मिरे आक्षरावानो वहन्तरिक्षेण पततः धातारस्तु पतेमजाः अग्निर्हिजानि पूर्यच्छन्दो न सूरो अर्चिषाः ते भानुभिर्वितश्चिरे आ नो विश्वाभिरुदिभिरश्वीरागच्छतम् युवाम् दस्राहिरण्यवर्तनीपरम् सोम्यम् मधु आ नूनम् जातमश्विनारथेन सूर्यत्वजा भुजीहिरण्यवेशसा कवीगम्भीरचेतसा आयातम् नहोषस्पर्यान्तरिक्षात्सु व्यक्तिभिः ो अश्विना मधुकण्वानाम् सवने सुतम् आनो यातम् निरस्पर्यान्तरिक्षादध प्रिया पुत्रः कण्वस्य वाभिह सुषाव सोम्यम् मधु आनो यातमुपश्रुत्यश्विना सोमवीदये स्वाहा सोमस्य वर्धना प्रकवीधीतिभिर्नरा यच्छिद्धिवाम् पुनर्षयो जुहुरेव सेनरा आयातमशिरागतमुपेमाम् सुष्ठुतिम् मम इवश्चिद्रोचनादध्यानो गन्तम् स्वर्विदा येभिर्वत्स प्रचेतसा स्तोमेभिर्हवनश्रुता किमन्ये पर्यासते स्म सोमेभिरश्विनाः पुत्रः कण्वस्य वामृषिर्गेर्भिर्वत्सो अविवृधत् आवाम् विप्रजिहावसे वस्तो मेभिरश्विना अरिप्रावृत्रहन्तपाता नो भूतम् मयो भुवा आयद्वाम् योषनारथमतिष्ठद्वाजिनी वसु विश्वान्यश्विना युवम् प्रतीतान्यगच्छतम् अतः सहस्र निर्निजारसेनायालमस्विना मत्सो वाम् मधुमध्वचोसंसी काव्यः कविः उरुमन्द्रापूरूपसूमनोतरारजीनाम् सोम् मे अश्विना विममभिमन्ये अनुषाताम् आलो विश्वान्यश्विना दत्तम् राधाम् सह्रजा ऋतम् न ऋत्यावतो मानोरीरथतम् निते यन्नादत्यापरावधि यद्वास्तो अध्यम्बरे अतः सहस्र निर्निजारसेनायातमश्विना यो वाम् नासत्या बृहद्गेर्भिर्वत्सो अवीवृधत् तस्मै सहस्र निर्निजमिषम् धत्तम् घृतश्च्युतम् स्मादूर्जम् घृतस्तु तमस्वीनागच्छतम् युवम् यो वाम् सुम्नाय दुष्टवद्वसूयाद्दारुणस्पति आनो गन्तम् निजादसेमम् स्तोमम् पुरुभुजा कृतम् नः सुश्रियो नरे मादातमभिष्टाये आवाम् विश्वाभिरुतिभिः प्रियमेधाहूषद दालम् दामध्वरा नामस्वीनाजामाहूतिषु ఆనోగంతం అయో భువాస్వీనా సంభువాయుగం యోవాం విపన్యో ధీతిభిర్గేర్భిర్వత్సో అవీవృధత్ యా విక్కణ్వం మేధాదిశిం యాభిర్వసందసవ్రజం యాభిర్గోసర్యమావతం తాభిర్నావతం నరా యాభిర్నరాత్మసదశుమావతం కృత్వేధనే తాభిష్వా అస్మాంగస్మినా ప్రావతం వాజసాతయే ప్రభాం సోమాన్ సుభృత్తజో గిరో వర్ధంతస్వినా పురద్రావృత్రహంత పాతానో భూతం పురుస్పృహా త్రీణి పదాన్యస్వినో రావిశ్వాంతి గుహా పర కవీరుతస్య పద్మాభిదర్వా జీవే బృహస్పతి ఆనో నమస్వినా యువం వత్సస్య గంధమవసే రాస్మీ యచ్చతమృగం ఋతుశ్చద్దిర్యోజితం జారాదయః యదంతరిక్షే యద్దివి యత్పంచమానుషామను ధృమ్నం దద్ధత్తవశ్వినా ఏవాం దంసాం శశ్వినా విప్రాసఃపది మా మృషుః ఏవేత్కాన్వస్య బోధనం అయం వాం ఘర్మ అశ్వినా స్తోమేన పరిషిచ్యతే అయం సోమో మధూమాన్ వాజినీ వసూజేన వృత్రం జిగేదథః యదత్సు యద్వనస్పదౌ యదోషాదేషు పురుదం ససాకృతం తేన మావిష్టమశ్వినా యజ్ఞా సత్యాభురణ్యథో యద్వా దేవభిరజ్జసాః అయం వాం వత్సో మదిభిర్న విందతే హవిష్మంతం హి గచ్ఛతః ఆనో నమశ్వినో నృషి స్తోమంచికేత వామయా ఆసోమం మధుమత్తమం ఘర్మం సింఛాదసర్వణి ఆనూనం రఘువర్తనిం రథం తిష్ఠాసో అశ్వినా ఆ వాం సోమా ఇమే మమ నభో నచుచ్చ వీరత సత్యవాన్నాసత్యోక్తైరాజుచ్చీమహి ేత్వస్య బోధతం యద్వాం క్షీమాం ఉత యద్వాం దీర్ఘతమాజువాహం వైన్య సాదనేష్ేదో అశ్వినాచేదలేతాతుష్పాహుతన పరస్పాభూతం జగత్వాహుతనస్వనూపా వర్తిస్తోకాయతన జాజజాతం యదింద్రేణ సరథం జాతో అశ్వినా యద్వా వాయునా భవతః సమోగసా యదాదిత్యేభిర్రిభిభిః సజోషసా యద్వా విష్ణోర్విక్రమణేషు తిష్ఠతః యదజ్జాశ్వినా వహం హువేజవాజసాతయే యత్ప్రత్స దుర్వణే సహస్రశ్రేష్టమశ్వినో నవాహ ఆనూనం జాతమశ్వినే మాహవ్యానీ వాం హితా ఇమే సోమాసో అధి దుర్వసే యదా వివేకన్వేషు వామస యన్నా సత్యాపరాకే అర్వాకే అస్తి భేషజం తేన నూనం విమదాయ ప్రచేతసా వత్సనిర్వత్సాయ యచ్చతం అభత్స ప్రదేవ్యా సాకం పాతారమశ్వినోః యావద్దేవ్యా మతిం విధాతిం వచ్చేభ్యః ప్రబోధజోషో అశ్వినా ప్రదేవి సూనృతే మహి ప్రయజ్ఞహోతరా నృఢక్ ప్రమదాయ శ్రవో బృహత్ యదూషోజాసి భారుణాసమూర్జేషరోజసే ఆహాయమశ్వినో రథో భర్తిర్యాతి నృపాయ్యం యదాపీనాసో అంసభోగావో న దుఃఖ్రబూధభిః యద్వాణీరనూషద ప్రదే వయంతో అశ్వినాః प्रद्युम्नाय प्रसवसे रमृषाह्याय धर्मणे प्ररक्षाय प्रचेतसा यन्नूनम् धीभिरश्विना पितुर्योना निषीदथा यद्वा सुम्नेभिरुक्ष्या यत्सो दीर्घप्रसद्वनि यद्वादोरोचरे दिवः यद्वा समुद्रे अध्याकृते गृहेत आजातमश्विना यद्वा यज्ञम् मनवे संमिमिक्षतु रेवेत्त्राण्वस्य बोधतम् बृहस्पतिम् विश्वान् देवा अहम् भो भगिन्द्रा विष्णोः अस्मिना वासुकेशसा अस्मिना भुवे सुदम् ससा गृभे कृता ययोरस्ति प्रणः सख्यम् देवेष्वध्याप्यम् ययोरधि प्रजज्ञा सूरे सन्ति सूरयाः ध्वरस्य प्रचेतसा स्वधाभिर्याविवद सौम्यम् मधु यदद्यास्विनावभाग्यत्प्राक् सोवाजिनीवसु यद्रव्यव्यनविदुर्वसे यदौमे वामधागतम् यदन्तरिक्षेपदतः पुरुभुता यद्धेमे रोदसी अनु यद्वा स्वदाभिरधितिष्ठतो रथमदायारमश्विना स्वमग्ने व्रतपासि देवामध्येष्वा त्वम् यज्ञेष्वीड्याः त्वमाधिप्रदस्यो विदधेषु सहन्त्य अग्नेरधीरध्वराणाम् सत्त्वमस्मदवद्विषो जिजोधिजादवेदः अदेवीरग्ने अरादीः अन्दिजित्सन्तमः यज्ञम् मर्तस्य रिपोः नोपवेषिजातवेदः मर्ता अमर्त्यस्य ते भूरि नाम मनामहे विप्रासो जातवेदसः विप्रम् विप्रासो वसे देवम् मर्तासभूतये अग्निम् गेर्भिर्हवामहे आतेः वत्सो मनोः यमत्परमाच्यः सधस्तात् अग्ने त्वाम् कामया गिरा रुद्राहि सदृङ्गसि विशो विश्वानुप्रभुः समत्सु त्वा हवामहे समत्स्वग्निमवसे वाजयन्तो हवामहे वाजेषु चित्रराधनम् रत्नो हि कवीर्यो अध्वरेषु सदाच्छो दानम् यश्च सत्सि स्वाञ्चाग्ने तन्वम् विप्रयस्वास्मभ्यम् च सौभगमाय जस्व भद्रम् न अपि वातयमनाः ओ हरिः ओ इन्द्रोमपादभोमदस्सविष्ठचेतति ये नामसिंहात्रिणम् समीमहे ये नादसद्भवद्रीगम् वेपयन् तम् स्वर्णरणम् येना समुद्रमाविधातमीमहे येन सिन्धुम् महीरपोरताङ्गिव प्रचोदयाः मन्दामृतस्य जातभेतमीमहे इमाम् सोममभिष्टये घृतन्न भूतमद्रिवः येनानु सद्यवोजसा वपक्षीथ इमञ्जूढस्व गिर्वणः समुद्रजीव बिन्वते इन्द्रविश्वाभिरूतिभिर्ववक्षीथ यो नो देवः परापतस्य हित्वराजमामहे दिवो न वृष्टिम् प्रथयन्तु ववक्षीथ अपक्षुरस्य केतव उदवज्रोगवस्योः यत्सूर्योनरोदसी अवर्धयत् यदि प्रवृद्धतत्पदे सहस्रम् महिषाम् अघाः ఆదిత్యేంద్రియమహిప్రవాృే ఇంద్రస్సూర్యశ్చరస్వధర్ణర్సదానవోషి అభ్యర్వణే వసాసి ప్రవాృే ఇయం దరిద్రియాపతిరేసి సవర్యంతీ పురు ప్రియామినీ తజిత్ గర్భో యజ్ఞస్య దేవయఃకృతం పునీత ఆనుషక్ సోమైరింద్రస్య వావృధే విమీతయత్ శరేర్మిత్రస్య వప్రథరింద్రస్వోమస్య పీతయే రాజీవాసీవ సంపతే విమీతయత్ యం విప్రా భుక్తవాహరో విప్రమందు రాజవాహ ఆసన్ ఋతస్వరాజేంద్రాయీయనత్ప్రశస్తమూతజత్ అభివన్నాయ భూతజేనో రథ ప్రశస్తే భవివ్రతీయత్సోమీంద్రవిష్ణాభియద్వాఘత్రిలాప్యే చక్రపరాపతిమే అధిమందసే అస్మాకమిత్సుందూభిందతో మృధో యజమానస్ సత్పదే ఉక్తే రాజశరణ్యసిందూభి ేవేవోపసైంద్రమింద్రం గృణీషణి అథాయ దుర్వేజ్ఞేర్యజ్ఞవాహసంభపాతమం హోత్రాభిరింద్రం వాబుధుర్జానసుీరస్ ప్రణీతయ పూర్వీరుత ప్రశస్తయ విశ్వాసో నిరాసుంద్రం రద్రాజనందేవాసో దధిరే పుర ఇంద్రం వాణీరూషదాసమోదే మహాంతం మహిళావజయం సోమేభిర్భవనశ్రుతం అర్కైరణోమోదే ీరాంతరిక్షాణి వజ్రిణం అమాదిత్యమోజసృతనాద్వాదే పుర ఆదిత్రే హరిజరాహరీవక్షం నీవృతం నవసావజ్రిన్నవధీ ే హరీవక్షే విష్ణురోజసాత్రీ పదవీచక్రమే ఆదిత్రే హరీవక్షే హరీవృధాతే దివే దీవే ఆదిత్రే విశ్వాభువనాని నిరే ృషస్తుభ్యమింద్రనిలే ఆదిత్రే విశ్వాభువనామిలే సూర్యమహం దివి శుక్రం జ్యోతిర్హారయ ఆదిత్రే విశ్వాభువనామిలే ఇమాంతరేంద్రీ జామిం పదే బిభ్రదీం ప్రాధ్వరే సామాని ప్రియశ్వరన్భాయజ్ఞోహ్రాధ్వరే సువీర్యం స్వస్వ్యమింద్రదధిర హోదే పూర్వచిత్తే ప్రాధ్వరే ఇంద్రసుమే శుక్రముఖ్యమహా సప్రథమేవా సదనే వృధ సుపారస్వశ్రవస్తమస్తమప్సుజిత్ తమేవాజసాదయంద్రం భరాయ సుష్మినం భవానస్తుందేవంతమస్తకాభిజేయంతయింద్రగర్వణో రాధిక్షరజున్వద మందాలో అస్య వర్గిలో విరాజసి నూనంతదింద్రదద్ధిలో యత్వా సున్వంత జీమహే రజన్నశ్చిత్రమాభరా స్వర్విదం సోదాయత్తే విదర్శనిరధి ప్రదర్థయద్గిరాః వజా జివానో రోగతే జుషంతయత్ ప్రత్నవజ్రనజాగిరశృణుధీజ ఋతుర్గమం మదేవక్షితృత్వోన ప్రపదాయీయాజుచ్చివ కుతోపదిర్జుచ్చీనా మే గజిధ్వసి నమో వృధైరవస్సుభిస్తుతేరణ